इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। राष्ट्रपतिः द्रौपदी मुर्मूः अद्य भुवनेश्वरे प्रवासी भारतीय दिवस सम्मेलनस्य समापन समारोहे सहभागं करिष्यति। सा विभिन्न क्षेत्रेषु उत्कृष्टतायै 17 प्रतिष्ठितेभ्यः भारतीय प्रवासी सदस्येभ्यः प्रवासी भारतीय सम्मान पुरस्कारेण सभाजयिष्यति। प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रोक्तवान् यत् 47-2000 वर्षपर्यन्तं भारतं विकसितं राष्ट्रं कर्तुं प्रवासी भारतीय जनानां महत्वपूर्णा भूमिका वर्तते। श्रीमोदी ओडिशायाः भुवनेश्वरे 18 प्रवासी भारतीय दिवसस्य औपचारिकोद्घाटनस्य अनन्तरं जनसभां सम्बोधयति स्म। प्रधानमन्त्रिणा वैश्विक विकासयात्रायां भारतस्य च विकासयात्रायां प्रवासी भारतीयानां महत्वपूर्णा भूमिका अपि प्रशंसिता। अमुना समस्ते विश्वे राजदूतरूपेण भारतीय प्रवासिनाम् उत्कृष्ट कार्याणि तेषाम् उपलब्धयश्च देशं गौरवान्वितं कुर्वन्ति इत्यपि प्रोक्तम्। प्रधानमन्त्रिणा श्रीमता मोदिना भारतीय प्रवासिभ्यः वैश्विक सम्मान प्रदानार्थं भारतीय मूल्यानां भूमिका अपि रेखाङ्किता। श्रीमोदी उक्तवान् यत् विगतेषु दशसु वर्षेषु अमुना नैकैः विश्वनेतृभिः समं सम्भाषणम् आचरितम्। विश्वस्य सर्वेऽपि नेतारः प्रवासी भारतीयानां श्लाघाम् एव कुर्वन्ति। तेन प्रोक्तं यत् अस्य मुख्यं कारणं तेषां सामाजिकं मूल्यं वर्तते, यद्धि प्रवासी भारतीयैः विश्व समुदायेषु प्रकटितम् अस्ति। भारतस्य लोकतान्त्रिक मूल्यानां महत्व विषये प्रकाशं कुर्वन् श्रीमोदी उक्तवान् यत् भारतं न केवलं लोकतन्त्रस्य जननी वर्तते, प्रत्युत लोकतन्त्रं तु अस्माकं जीवनशैल्यां समाहितम् अस्ति। सः उक्तवान् यत् विगते दशके भारते 25 कोट्यधिकाः जनाः निर्धनतातः बहिरागताः। अनेन साकमेव राष्ट्रं तृतीयां बृहत्तमां अर्थव्यवस्थां भवितुम् अग्रेसरं वर्तते। अस्मिन् अवसरे श्रीमोदी सविशेषं प्रत्यपादयत् यत् भारतस्य युवजनसंख्या विशेष सामर्थ्ययुता वर्तते, अतः प्रशासनस्य मुख्योद्देश्यः देशस्य युवजनानां कौशलोन्नयने सामर्थ्य संवर्धने च वर्तते। कार्यक्रमस्य अन्तर्गतं प्रधानमन्त्रिणा नैकाः प्रदर्शन्यश्चापि उद्घाटिताः, याः खलु भारतस्य समृद्ध सांस्कृतिक रिक्थानि प्रदर्शयन्ति। अस्मिन् अवसरे प्रधानमन्त्री श्रीमोदी प्रवासी भारतीय प्रवासी तीर्थ दर्शन योजनायाः अन्तर्गतं प्रवासी भारतीयानां कृते एकस्य प्रवासी भारतीय एक्सप्रेस इत्याख्यस्य विशेष पर्यटक रेलयानस्य उद्घाटनम् अपि हरितध्वज प्रदर्शन पूर्वपूर्वकं कृतवान्। दिल्ल्याः निजामुद्दीनतः प्रचाल्यमानम् इदं रेलयानं 17 यावत् प्रवासी भारतीय जनान् समग्रदेशस्य विभिन्नेषु धार्मिक पर्यटनस्थलेषु नेष्यति। उत्तरप्रदेशस्य प्रयागराजे कुम्भनगर्यां महाकुम्भस्य अनुष्ठानस्य सज्जताः समाप्तप्रायाः सन्ति। ध्यानास्पदमस्ति यत् अस्य मासस्य 13 महाकुम्भानुष्ठानं समारभते। एतदर्थं सुरक्षादृशा तत्र अस्थायि जनपदं कुम्भनगरं प्रशासनेन प्रकल्पितम् अस्ति। महाकुम्भस्य भव्यतया साफल्येन च समनुष्ठानार्थं गंगा यमुन सरस्वतीनां संगमतटे पवित्रस्नानार्थं विशेषरूपेण घट्टाः विनिर्मिताः सन्ति, स्वच्छतायै सविशेषं ध्यानं दीयते। गतसायं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः महाकुम्भानुष्ठानस्य सज्जतानां विशेषनिरीक्षणम् अपि कृतवान्। अद्य प्रयागराजे आकाशवाण्याः कुम्भवाणी वाहिन्याः शुभारम्भः भविष्यति। मुख्यमन्त्री योगी आदित्यनाथः महाकुम्भाय समर्पितायाः अस्याः वाहिन्याः शुभारम्भं करिष्यति। ऋतुविज्ञानविभागेन अद्य जम्मूकश्मीरस्य लद्दाखस्य च पृथक् पृथक् स्थानेषु शीतलहर्याः अनुमानः प्रकटितः। हरियाणां चण्डीगढं दिल्लीं च समेत्य देशस्य पूर्वोत्तर राज्यानां कतिपयभागेषु कुज्झटिका प्रभावः भविष्यति।